एषा रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। नागरिकाणाम् अधिकारस्य स्थापनायै कृतजीवनोत्सर्गाणाम् हुतात्मनाम् संस्मृतौ अद्य आराष्ट्रम् विभिन्नै कार्यक्रमैस्सह हुतात्म दिवसः समायोज्यमानोऽस्ति। हुतात्म सप्ताहस्य अन्तिम दिवसे अमर हुतात्मनः प्रति आराष्ट्रम् भावपूर्णः श्रद्धाञ्जलि समर्प्यते। एकतन्त्रात्मकस्य राणा शासनस्य अन्यायेभ्य अत्याचारेभ्यश्च मुक्तिम् प्रदाय प्रजातान्त्रिक शासन व्यवस्थायाः स्थापनायै कृतजीवनोत्सर्गाणाम् संस्मरणे प्रतिवर्षम् माघ मासस्य दशम दिवसात् षोडश दिवसम् यावत् विभिन्नै कार्यक्रमैस्सह हुतात्म सप्ताह समायोज्यते। वैक्रमाब्दे विहितेन शुक्र राज गंगालाल धर्मभक्त दशरथ चन्द प्रभृतिनाम हुतात्मनाम विपुल योगदानेन आत्मबलिदानेन च चतुरधिक शत वर्षाणि यावत् शासनं विदधतः राणा सर्वकारस्य समाप्तिं कृत्वा सप्ताधिक द्विसहस्रतमे विक्रमवर्षे नेपाले प्रजातन्त्रं संस्थापितमासीत्। प्रजातन्त्रस्य स्थापनायै स्वतन्त्रतायै च निरंकुशस्य राणा शासनस्य विरूद्धम् आन्दोलनं कृतमिति हेतुः राणा सर्वकारेण सप्तनवत्युत्तरैकोनविंश वैक्रमाब्दस्य माघ मासस्य दशमे दिवसे काष्ठमण्डपस्य टेकुस्थाने शुक्रराज शास्त्रिणे माघ मासस्य त्रयोदश दिवसे काष्ठमण्डपस्यैव शिफलस्थाने धर्मभक्त माथिमा विधाय माघ मासस्यैव पञ्चदश दिवसे शोभा भगवती स्थाने दशरथ चन्दाय गंगालाल श्रेष्ठाय च मृत्युदण्ड दत्त आसीत्। अतः मुख्यतः तेषामेव चतुर्णाम् हुतात्मनाम् योगदानं संस्मृत्य नेपाले द्वादशोत्तर द्विसहस्रतम विक्रम वर्षात् प्रतिवर्षम् माघ मासस्य दशम दिवसात् षोडश दिवसम् यावत् हुतात्म सप्ताह समायोज्यते। अत्रान्तरे राष्ट्रपतिना रामचन्द्र पौडेलेन नागरिकाणाम् स्वतन्त्रतायै लोकतन्त्रस्य स्थापनायै राष्ट्रियतायाः रक्षायै च आत्मबलिदानम् कृतवद्भ्य शुक्रराज शास्त्री धर्मभक्त माथिमा दशरथचन्द गंगालाल श्रेष्ठेभ्य हुतात्मभ्य श्रद्धाञ्जलिः समर्पितः अस्ति। हुतात्मदिवसस्य अवसरे एकं सन्देशं प्रकटयित्वा राष्ट्रपतिना पौडेलेन देशस्य जनतानां कृते प्राणाहुतिं दत्तवतां महतां हुतात्मनां दिवसः अस्तीति कथयता नेपाल जनता स्वतन्त्रता कर्तुं निरंकुशतन्त्रस्य अन्ताय विभिन्नेषु समयेषु कृतात्मबलिदानेभ्य सर्वेभ्य हुतात्मभ्य सम्मानं प्रकटितं वर्तते। एवमेव उपराष्ट्रपतिना रामसाहेब प्रसाद यादवेन च हुतात्मदिवसस्य अवसरे एकं सन्देशं प्रकाश्य प्रजातन्त्रस्य लोकतन्त्रस्य च स्थापनायाः श्रेयः हुतात्मभ्य एव अस्तीति कथयता देशस्य कृते हुतात्मनां योगदानस्य उच्च मूल्यांकनं विधाय तेभ्यः श्रद्धाञ्जलिः समर्पितोऽस्ति। सर्वकारेण सम्प्रत्येव क्रियान्वितः अध्यादेशः द्रुतमार्गात् पारितीकरणाय पूर्वकार्यं विहितमस्ति। मन्त्रिपरिषदः ह्यस्तनोपवेशेन राष्ट्रपतिना सम्प्रत्येव क्रियान्वितः अध्यादेशः अस्यैव माघ मासस्य अष्टादश दिवसात् प्रारप्स्यमाणे संसदः शीतकालिकाधिवेशने द्रुतमार्गात् पारितीकर्तुं निर्णीतमस्तीति संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ असूचयत्। सर्वकारस्य प्रवक्ता च मन्त्री गुरूङ आवश्यकतायाः आधारे अध्यादेशानाम् आनयनं सर्वकारस्य संवैधानिकोऽधिकारोऽस्तीति चर्चयन् सुशासनस्य प्रवर्धनाय अर्थतन्त्रस्य समस्यानां समाधानाय च सर्वकारेण अध्यादेशाः क्रियान्विताः सन्तीति समस्पष्टयत्। मन्त्रिपरिषदः उपवेशेन हुतात्म सप्ताहस्य अन्तिमे दिवसे अद्य विविधै कार्यक्रमैस्सह हुतात्म दिवसः आयोजयितुं निर्णीतमस्ति। नेकपा एमाले दलेन संसदः शीतकालिकाधिवेशनं प्रभावपूर्णं विधातुं भूमिकां निर्वोढुं सांसदः निर्दिष्टः सन्ति। ह्य नयाँ वानेश्वरवर्तिनी संसद भवने उपविष्टेन दलस्य संसदीय दलस्योपवेशेन अस्यैव माघ मासस्य अष्टादश दिवसात् प्रारप्स्यमाणम् अधिवेशनं प्रभावपूर्णं विधातुं दलस्य पक्षतः प्रतिनिधित्वं कुर्वन्तः द्वयोः सदनयोः सांसदाः निर्दिष्टाः सन्ति। एमाले दलस्य मुख्य सचेतक पदीयः महेश बर्तौला अधिवेशनं प्रभावपूर्णं विधातुं दलेन सर्वे सांसदाः सक्रियतापूर्वकं भागं ग्रहीतुं निर्दिष्टाः सन्तीति असूचयत्। उपवेशे दलस्य पक्षतः प्रतिनिधिसभायाः राष्ट्रियसभायाश्च सदस्यानां सहभागिता आसीत। एमाले संसदीय दलस्य उपवेशे प्रधानमन्त्रिणा केपी शर्मा ओलिना सर्वकारेण आनीतान् अध्यादेशान् प्रति सामान्यतया समीचीनः प्रतिक्रियाः सम्प्राप्ताः सन्ति। सर्वकारः देशं समुन्नतं विधातुं प्रयासरतो वर्तते इत्युक्तमासीत्। प्रधानमन्त्री ओली अध्यादेशस्य माध्यमेन ऊनत्रिंशति विधिषु संशोधनं विहितमस्तीत्यतः शीघ्रमेव प्रतिस्थापनं विधेयकमानीय स्थायिनं विधिं निर्माय प्रभावपूर्णं क्रियान्वयनं विधास्यते इति प्रावोचत्। प्रतिनिधिसभायाः कार्यव्यवस्था परामर्श समित्या आगामिनः प्रतिनिधिसभायाः उपवेशस्य कार्यसूची निर्धारिता अस्ति। सभामुखस्य देवराज घिमिरेभिदस्य अध्यक्षतायां ह्यः उपविष्टेन समितेः उपवेशेन सम्भाविता कार्यसूची निर्धारिता वर्तते। उपवेशस्य निर्णयस्य अनुसारेण अधिवेशनस्य प्रथमे दिवसे एतद् विक्रमवर्षीयः सहकारी संस्था सम्बद्धानां केषाञ्चिद् नेपालाधिनियमानां संशोधनाय निर्मितः अध्यादेशः, सुशासन प्रवर्धन सार्वजनिक सेवा प्रवाह सम्बद्ध केषाञ्चिद् नेपालाधिनियमानां संशोधनाय निर्मितः अध्यादेशः, आर्थिक कार्यविधि वित्तीयोत्तर दायित्व प्रथम संशोधनाध्यादेशः, नैजकरण सम्बद्ध प्रथम संशोधनाध्यादेशः, आर्थिक व्यावसायिक वातावरण सुधार निवेशाभिवृद्धि सम्बद्धानां केषाञ्चित् नेपालाधिनियमानां संशोधनाय निर्मितः अध्यादेशः, भूसम्बद्धानां केषाञ्चित् नेपालाधिनियमानां संशोधनाय निर्मितः अध्यादेशश्च प्रतिनिधिसभायां प्रस्तुष्यन्ते। अत्रान्तरे संचार सूचना प्रविधि मन्त्रालयेन सामाजिक सञ्जाल सञ्चालन प्रयोग नियमन सम्बद्धं विधेयकं संसदि प्रस्तुतमस्ति। अस्यैव माघ मासस्य सप्तमे दिवसे उपविष्टस्य मन्त्रिपरिषदः उपवेशस्य निर्णयानुसारेण विधेयकमिदं संसदि प्रस्तुतमस्ति। समाजवादी संयुति नेपालस्य नेतारः सहभागिभिः दलैस्सह परामृश्य विचार कार्यक्रमेषु एकरूपेषु सत्सु एव दलैकतायां प्रवेशार्थं बलं दत्तवन्तः। समाजवादी संयुत्या ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे संयुतौ सहभागी दलानां शीर्ष नेतृभिः दलैकतां सार्थकां विधातुं दलेषु प्रशस्तस्य विमर्शनस्य आवश्यकता प्रदर्शिता। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति नैपालकानां सर्वासां जातीनां स्वकीयाः परम्परा रीतयः संस्कृतयश्च सन्तीत्यतः तासां संरक्षणं सर्वैः मिलित्वैव कर्तव्यम्। ह्यः शीतल निवासवर्तिनी राष्ट्रपतिभवने दीपं प्रज्वाल्य सुनाम लोसार पर्वणः शुभारम्भं विदधानः राष्ट्रपति पौडेलः बहुधार्मिके बहुसांस्कृते च नेपाल समाजे सुनाम लोसार सदृशेण पर्वणा नेपालजनेषु परस्परं सद्भावं सहिष्णुतां बन्धुत्वञ्च वर्धयितुं राष्ट्रियैकतां दृढयितुं च योगदानं विधास्यते इति विश्वासम् अभिव्यनात्। नेपाले विशिष्ट सांस्कृतिक सम्पदयुतस्य तामाङ समुदायस्य जनाः विपुलमात्रायां सन्तीत्यतः तामाङ समुदायस्य सांस्कृतिके सामाजिके धार्मिके च जीवने सुनाम लोसार पर्वणः विशिष्टं महत्वपूर्णञ्च स्थानमस्तीति राष्ट्रपतेः कथनमस्ति। मञ्जुश्री पञ्चाङ्गस्यानुसारेण प्रतिवर्ष माघमासस्य शुक्लपक्षस्य प्रतिपत्तिथौ सुनाम लोसार पर्व समाद्रियते। अस्य वर्षस्य सुनाम लोसार पर्व श्वः गुरुवासरे वर्तते। पोखरा नगरवर्तिना उच्च न्यायालयेन सूर्यदर्शन सहकारी संस्था वञ्चन प्रकरणे पूर्व गृहमन्त्रिणः राष्ट्रिय स्वतन्त्र दलस्य सभापतेश्च रवि लामिछानेभिदस्य विषये विस्तृतं विवरणं प्रस्तोतुम् आदिष्टम् वर्तते। उच्च न्यायालयस्य न्यायाधीशस्य मिलन कुमार राय इत्यस्य न्यायपीठेन इतः पूर्वम् एतत् प्रकरणे कास्की जनपद न्यायालयेन विहितस्य निर्णयस्य विस्तृतं विवरणं याचयितुम् आदिष्टमस्ति। जनपद न्यायालयेन 65 रूप्यकाणि न्यासवित्तत्वेन गृहीत्वा आत्मानं कारागारान्मुक्तं कर्तुं विहितस्य निर्णयस्य विरुद्धे सभापतिना लामिछानेभिदेन परह्य सोमवासरे उच्च न्यायालये आवेदनं पञ्जीकृत्य आत्मना साधारणरूपेणैव न्यायालयेन निश्चितदिने न्यायालये उपस्थितिं विधाय न्याय सम्पादनस्य अवसरं प्राप्तुम् अभियाचितम् आसीत् इति समाचारः।